एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुति रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली समन्वय वर्धाप्य परिणामस्य प्राप्तित्वेन कार्यं कर्तुं मन्त्रिणः राज्यमन्त्रिणश्च निर्देशति सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः नवनियुक्तैः त्रिभिः राज्यमन्त्रिभिः शपथग्रहणानन्तरं तेभ्य वर्धापनं शुभकामनां च ददत् प्रधानमन्त्री ओली राज्यमन्त्रिणां मुख्यं कार्यं मन्त्रिणां सहयोगो भवतीत्यतः रचनात्मकतया स्वकार्यक्षेत्रस्य सदुपयोगं कर्तुं परामृष्टवान् प्रधानमन्त्री ओली सर्वैः मन्त्रिभिः राज्यमन्त्रिभ्य आवश्यकं कार्यभारं प्रदाय परिणामस्य प्राप्त्यै ध्यानं दातुम् अनुरुणत् एवमेव प्रधानमन्त्री ओली त्रिभुवनान्तर्राष्ट्रिय विमानस्थल समीपस्थ इन्धनागार संकटग्रस्तो स्थिति विषयं प्रति अभिरूचिं प्रदर्शयन् इन्धनागारम् अन्यत्र स्थानान्तरयितुं ध्यानं दातुं मन्त्रिणं राज्यमन्त्रिणं च निरदिशत् ह्य एव राष्ट्रपतिना रामचन्द्र पौडेलिन प्रधानमन्त्रिण परामर्शेन संस्कृति पर्यटन नागरिक उड्डयन राज्यमन्त्रीपदे अरूण कुमार चौधरी वन वातावरण मन्त्रीपदे रूपा विक ऊर्जो जलस्रोत सेचन मन्त्रीपदे पूर्णबहादुर तामाङ च नियुक्ता आसन् सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्री दीर्घबहादुर सोडारी पदात्यागपत्रं दत्तवान् अस्ति ह्यः उपविष्टं प्रदेशसभायाः उपवेशं सम्बोधयन् मुख्यमन्त्री सोडारी त्यागपत्रस्य प्रदानस्य घोषणां विदधात् उपवेशे मुख्यमन्त्री सोडारी मासत्रयस्य लघुवधौ अपि सर्वकारस्य नेतृत्वं कुर्वता यथासम्भवं जनतायाः आशाम् अपेक्षां च पूरयितुं प्रयासो विधायी इति अभाषत सोडारी इत्यनेन त्यागपत्र प्रदानानन्तरं नूतन सर्वकारस्य संघटनाय मार्ग प्रशस्तिभूतो वर्तते अत्रान्तरे सुदूरपश्चिम प्रदेशस्य प्रदेश प्रमुखेन नजीर मिया इत्यनेन सुदूरपश्चिम प्रदेश सर्वकारस्य संघटनाय दलानि आहूतानि सन्ति ह्य प्रदेश प्रमुखेन मिया इत्यनेन श्वः रविवासरस्य पञ्चवादनं यावत् मुख्यमन्त्री पदाय स्वत्वं प्रस्तोतुम् आहूतमस्तीति प्रदेश प्रमुख कार्यालयस्य प्रवक्त्रा दीर्घराज भट्टराय इत्यनेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते लुम्बिनी प्रादेशिक सर्वकारे सहभागिनाम् अष्टानां मन्त्रिणां विभागीय दायित्वं निर्धारितमस्ति विना विभागीय मन्त्रिणां रूपेण दशदिनेभ्यः पूर्वं गृहीत शपथानां मन्त्रिणां ह्यः विभागीय दायित्वं निर्धारितमस्ति लुम्बिनी प्रादेशिक सर्वकारस्य मुख्यमन्त्रीपदे एमाले संसदीय दलस्य उपनेत्रा चेतनारायण आचार्येण सहितै एमाले दलस्य पञ्चभिः कांग्रेस दलस्य पक्षत चतुर्भिश्च मन्त्रिभिः अस्यैव श्रावणस्य नवमे दिवसे शपथः गृहीतः आसीत् मुख्यमन्त्रिणा चेतनारायण आचार्येण ह्य एतेषां मन्त्रिणां कार्यविभाजनं विहितं वर्तते राष्ट्रिय परीक्षा समित्या द्वादश कक्षायाः परिणामः प्रकाशितो वर्तते गत वैशाख मासस्य चतुर्दश दिवसात् सञ्चालितायां परीक्षायां पञ्चसहस्राणां पञ्चशतस्य द्वाचत्वारिंशतश्च विद्यालयानाम् आसन्न चतुर्लक्षाणि परीक्षार्थिनः सहभागिनः आसन् सार्वजनिकृतस्य परीक्षा परिणामस्य अनुसारेण नियमितेषु विद्यार्थिषु प्रतिशतम् आसन्न त्रिपञ्चाशत् विद्यार्थिनः उत्तीर्णाः सन्तीति परीक्षा समित्या ज्ञापितं वर्तते सर्वकारेण मत्स्येन्द्रनाथस्य कञ्चुक प्रदर्शनस्य दिवसे श्वः रविवासरे काष्ठमण्डपोपत्यकायाः त्रिषु जनपदेषु सार्वजनिकावकाशं प्रदातुं निर्णीतं वर्तते श्वः रविवासरे काष्ठमण्डपे ललितपुरे भक्तपुरे च सार्वजनिकावकाशं प्रदातुं निर्णीतमस्तीति गृहमन्त्रालयस्य प्रवक्त्रा नारायण प्रसाद भट्टराय इत्यनेन प्रकाशितायां सूचनायाम् उल्लिखितमस्ति वर्षाणां सहकालस्य च देवत्वेन प्रथितस्य रक्तमत्स्येन्द्रनाथ रथयात्रा परह्य बृहस्पतिवासरे ललितपुरस्य जावलाखेलस्थानं प्राप्तास्ति जावलाखेलस्थानप्रापणस्य चतुर्थे दिवसे मत्स्येन्द्रनाथस्य कञ्चुक प्रदर्शनस्य परम्परा वर्तते श्रावण कृष्ण पक्षस्य चतुर्दश्या दिने समाद्रियमाणं गठे मंगलेति नामधेयं घण्टाकर्ण पर्व ह्यः समायोजितम्। नेवार समुदाये वार्षिक स्थानीय पर्वसु घण्टाकर्ण पर्व सर्वापेक्षया प्रथम पर्वत्वेन समाद्रियते। नेवार समुदायेन अस्मात् दिनादेव अस्य वर्षस्य पर्वाणि प्रारभ्यन्ते। पर्वेदं विशेषतः नेवार समुदायेन सांस्कृतिक परम्परानुसारेण समाद्रियते। गठे मंगल इति नामधेयस्य राक्षसस्य वधस्य स्मृतौ अस्य पर्वणः दिने प्रातःकाले वनस्पतिभिः राक्षसमूर्तिं निर्माय चत्वरे स्थाप्यते। सा मूर्तिः आदिनम् आतपे संस्थाप्य सूर्यस्य अस्थिभवनानन्तरं नद्यां विसृज्यते। कतिपयस्थलेषु बहूनां स्थानानां गठे मंगलेति नामधेयस्य राक्षसस्य मूर्तिः एकीकृत्य दाहकरणस्य च परम्परा वर्तते। त्रीणि दिनानि अवरुद्ध राष्ट्रिय गौरव युतायाः आयोजनायाः कालीगण्डकी तटीय मार्गः संचालितो वर्तते। गत मंगलवासरस्य रात्रौ जातायाः अविरल वृष्टेः अनन्तरं बागलुङ नगरपालिकायाः दशमौडा क्षेत्रस्य दबल्याङ स्थाने भूस्खलनेन तटीय मार्गः पूर्णतया अवरुद्ध आसीत्। उपकरणस्य सहयोगेन भूस्खलनस्य अपसारणानन्तरं तटीय मार्गः पुनः संचालितो। स्थिति बागलुङ जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रहरी नायब उपरीक्षकः विजय यादवः असूचयत्।